इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका ऋचा झा। अथ वार्ताः। प्रधानमन्त्री नरेन्द्रमोदी अमेरिकादेशस्य राष्ट्रपतिना डोनाल्ड ट्रम्प इत्येतेन सह दूरभाषमाध्यमेन संवादम् आचरितवान्, घोषणाञ्च अकरोत् यत् भारते निर्मितेष् उत्पादेष् शुल्कम् 18% न्यूनं भविष्यति। सामाजिक सञ्चारपटले एकस्मिन् लेखे श्रीमोदी लिखितवान् यत् यदा अर्थव्यवस्थाद्वयं विश्वस्य बृहत्तमं लोकतन्त्रञ्च मिलित्वा कार्यं कुर्वन्ति तदा अनेन जनेभ्यः लाभः भवति अथ पारस्परिकरूपेण लाभप्रद सहयोगाय अवसराः उद्घाटिताः भविष्यन्ति। असौ अस्यै घोषणायै भारतस्य 14.1 अर्बुदमितानां जनानां पक्षतः राष्ट्रपतये ट्रम्प वर्याय कृतज्ञतां प्रकटितवान्। असौ कथितवान् यत् भारतं शान्त्यै तस्य प्रयत्नान् पूर्णतया समर्थयतीति। विदेशमन्त्री डॉ एस जयशंकरः प्रधानमन्त्रिणः नरेन्द्रमोदिनः अमेरिकादेशस्य राष्ट्रपतेः डोनाल्ड ट्रम्प इत्येतस्य च मध्ये जातस्य संवादस्य अनन्तरं द्विपक्षीय व्यापार विषये कृतानां घोषणानां स्वागतम् अकरोत्। सामाजिक संचार पटले एकस्मिन् सन्देशे डॉ जयशंकरः लिखितवान् यत् अनेन अत्यधिका जीविकाः उत्पन्नाः भविष्यन्ति, विकासः इतोऽपि वर्धिष्यति, द्वयोः अर्थव्यवस्थयोः नवाचारमपि वर्धिष्यति इति। असौ उक्तवान् यत् अनेन मेक इन इण्डिया इत्येतस्मिन् दिशि प्रयत्नाः सुदृढाः भविष्यन्ति, प्रौद्योगिक सम्बन्धाः प्रोत्साहिताः भविष्यन्ति इति। भारतीय जनता पार्टी इति दलं मणिपुरे विधायक दलस्य नेतुः निर्वाचनाय दलस्य राष्ट्रिय महासचिवस्य तरुण चुग इत्येतस्य केन्द्रीय पर्यवेक्षक रूपेण नियुक्तिम् अकरोत्। इयं नियुक्तिः भाजपा संसदीय मण्डलेन कृता। अमेरिकायां भारतीय राजदूतः विनय मोहन क्वात्रा उक्तवान् यत् भारतामेरिका व्यापार सहमतिः प्रधानमन्त्रिणः नरेन्द्रमोदिनः अमेरिकादेशस्य राष्ट्रपतेः डोनाल्ड ट्रम्प इत्येतस्य च पारस्परिक सहयोगाय विजयरूपेण वर्तते। सामाजिक संचार पटले एकस्मिन् सन्देशे असौ लिखितवान् यत् व्यापार सहमतिः द्वाभ्याम् अर्थव्यवस्थाभ्याम् द्वयोः देशयोः जनेभ्यश्च नूतनावसराः उद्घाटयति। नेशनल बुक ट्रस्ट इत्येतेन संस्थानेन गोवा प्रशासनस्य समर्थ युवा फाउंडेशन इत्येतस्य च सहयोगेन ह्यः आधिकारिक रूपेण अस्य वर्षस्य गोवा पुस्तक महोत्सवस्य घोषणा कृता। गोवा पुस्तक महोत्सवः श्वः आरप्स्यते अथ अस्य मासस्य 8 दिनांकं यावत् कैंपल ग्राउंड इत्यत्र प्रचलिष्यति। मुख्यमंत्री डॉ प्रमोद सावंतः अस्य कार्यक्रमस्य उद्घाटनं करिष्यति, यत्र शत प्रकाशकानां 200+ प्रदर्शनीभिः सह एका विशाल साहित्यिक प्रदर्शनी अपि भविष्यति। महोत्सवे सचिन पिलगावकरः, मृणाल कुलकर्णी, आचार्य प्रशांत सदृशानां प्रख्यात वक्तृणां एका श्रृंखला अपि आयोजयिष्यते। विमेन्स प्रीमियर लीग क्रिकेट क्रीडायां गुजरात जॉयंट्स दलम् अद्य वडोदरायाः कोटाम्बी स्थले बीसीए इत्येतस्मिन् क्रीडा प्रांगणे दिल्ली कैपिटल्स दलं सम्मुखीकरिष्यति। इयं स्पर्धा सायं 7:30 प्रारप्स्यते। अस्याः स्पर्धायाः विजेतृदलं गुरुवासरे निर्णायक चक्रे रॉयल चैलेंजर्स बेंगलुरु दलं सम्मुखीकरिष्यति इति अवधेयास्पदं वर्तते इति वार्ताः।